एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अर्घाखाँची जनपदस्य सीतगंगा नगरपालिकायाः द्वितीयवडा क्षेत्रस्य भुवनपाटा स्थाने ह्य दुरापन्नायाम् बसयानस्य दुर्घटनायाम् चत्वारो जनाः मृताः सन्ति। दुर्घटनायाम् सप्तविंशतिर्जनाः आहताः वर्तन्ते। आहतेषु पञ्चजनानाम् अवस्था गभीरा स्थिति प्रहरिणा ज्ञापितम् वर्तते। दुर्घटनायाम् रूपन्देही जनपदस्य बुटवल उपमहानगरपालिकायाः अष्टमवडा क्षेत्रस्य पञ्चपञ्चाशत् वर्षीय जमुना बस्यालः, नवलपरासी जनपदस्य भूमई स्थानस्य पञ्चचत्वारिंशत् वर्षीय उमा न्यौपाने, बर्दघाट स्थानस्य पञ्चचत्वारिंशत् वर्षीय बसयान चालक मदन कुमार विक च मृताः सन्तीति जनपद प्रहरी कार्यालयस्य निमित्त प्रहरी प्रमुख प्रहरी निरीक्षक विष्णु प्रसाद पौडेल असूचयत। दुर्घटनायां मृता एका महिला अधुनावधि सत्यापिता नास्ति। आहतानाम् जनानाम् उपचारः जायमानो स्थिति च प्रहरिणा ज्ञापितम् वर्तते। सर्वकारेण नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकस्य कुलमान घिसिङ इत्यस्य विहितायाः पदमुक्तेः विरोधे संघीय संसदः सदनद्वयस्य ह्यस्तनोपवेशौ प्रतिपक्षिदलैः अवरुद्धौ स्तः। प्रतिनिधिसभाया ह्यस्तनोपवेशस्य प्रारम्भस्य अनुपदमेव विपक्षिदलानां सांसदै उत्थाय उपवेशः अवरोधितः आसीत्। तदनन्तरम् अवरोधस्य विषयं स्पष्टीकर्तुं सभामुखेन देवराज घिमिरे विधेन माओवादी केन्द्रस्य सांसदाय शक्ति बस्नेत इत्यस्मै समयः प्रदत्तः आसीत्। विपक्षीदलानां नैरन्तर्यस्य उपवेशावरोधनस्य पश्चात् सभामुखेन घिमिरे विधेन अर्धघण्टायाः कृते उपवेशः स्थगितकृतः आसीत्। तदनन्तरं ह्यः द्वित्रिवादने प्रारब्धः प्रतिनिधिसभाया उपवेशोऽपि प्रतिपक्षिदलानां सांसदैः अवरोधितः। सर्वकारात् घिसिङ इत्यस्य पदमुक्तेः कारणस्य स्पष्टीकरणस्य अप्रदानं यावत् उपवेशे अवरोधः करिष्यते इति प्रतिपक्षिदलानां सांसदानां कथनस्य पश्चात् सभामुखेन घिमिरे विधेन अद्य प्रातः एकादशवादनाय उपवेशं निर्धार्य ह्यस्तनोपवेशः स्थगितीकृतः आसीत्। एवमेव राष्ट्रियसभायाः ह्यस्तनोपवेशे प्रतिपक्षिदलैः नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकस्य कुलमान घिसिङ इत्यस्य पदमुक्तेर्विषये प्रधानमन्त्रिणः उत्तरम् अभियाच्य उपवेशः अवरोधितोऽस्ति। राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः ह्य उपवेशस्य प्रारम्भानन्तरं प्रतिपक्षिदलानां सांसदैः उत्थाय विरोधः प्रदर्शितः। ततश्च सभाध्यक्ष दाहाल नेकपा माओवादी केन्द्रस्य सांसदाय गोपी बहादुर अछामी इत्यस्मै भाषणाय समयं प्रादात्। सभायां सांसद अछामी सर्वकारेण नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकः घिसिङ पूर्वाग्रहेण पदाद मुक्तो विहित इति प्रधानमन्त्रिणः स्पष्टीकरणा भविष्यति, सदनस्य सञ्चालनं न सम्भवतीति अवोचत्। अध्यक्षस्य दालस्य भूयो भूय अनुरोधानन्तरमपि सांसदा न स्थितवन्तः। ततः सभाध्यक्षेण दाहालेन अद्य पर्यन्तम् उपवेश स्थगितीकृतः आसीत्। राष्ट्रियसभायाः अपरोपवेश अद्य सपादद्वादशवादने वसति। तत्पूर्वं प्रतिपक्षिदलानाम् उपवेशेन नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकस्य घिसिङ इत्यस्य विहितायाः पदमुक्तेः विषयस्य विरोधाय निर्णय विहितः आसीत्। प्रतिपक्षिदलानाम् उपवेशेन सर्वकारस्य निर्णयस्य संशोधनार्थम् अनुरोच्यते। निर्णयस्य पुनः संशोधनाभावे सदनयोः मार्गेषु च विरोध प्रदर्शनं करिष्यते इति च निर्णीतमिति राष्ट्रिय स्वतन्त्र दलस्य प्रमुख सचेतक पदीय सन्तोष परियार अज्ञापयत। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः, एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालश्चेति प्रवृत्तिनां प्रतिपक्षीदलानां नेतृणां सहभागिता आसीत्। प्रधानमन्त्री केपी शर्मा ओली निगदति जनतया संघर्षं कृत्वा स्थापिताः अधिकाराः केनापि हर्तुं न शक्यन्ते। राष्ट्रिय युवा संघ नेपालेन ह्य काष्ठमण्डपे आयोजिताम् राष्ट्रिय स्वयंसेवक मेलाम् सम्बोधयन् नेकपा एमाले दलस्य अध्यक्षश्च प्रधानमन्त्री ओले युवसंघे जनतायै आवश्यकतायां सत्यां सर्वविध परिस्थितेः प्रतिकरणस्य सामर्थ्यं वर्तते इति अगदत। तदवसरे प्रधानमन्त्री ओली एकस्य कर्मचारिणः सर्वकारेण वीतायाः पदमुक्तेः विषयः सामान्योऽस्तीत्यतः प्रधानमन्त्रिणा उत्तरप्रदानस्य आवश्यकता नास्तीति स्पष्टीकृतम् कृतवान् आसीत्। तदवसरे प्रधानमन्त्री ओली अस्यैव चैत्रस्य अष्टादशं दिवसं यावत् अध्यादेशानां विस्थापन विधेयकानि आनीय पारितीकरणस्य अवस्थास्ति इत्यतः तद्रोद्धुं विपक्षिदलैः सदनावरोधस्य कार्यं प्रारब्धम् अस्तीति उक्त्वा चिन्तां प्राकटयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति कुलमान घिसिङ इत्यस्य नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशक पदात् विहिताय पदमुक्तेः कारणस्य विषये प्रधानमन्त्रिणा केपी शर्मा ओलिना उचितम् उत्तरं देयम्। नयाँ वानेश्वरवर्तिनी संसद भवने ततः बैरभवनस्य क्रमे ह्य अध्यक्ष प्रचण्ड विषयेऽस्मिन् प्रधानमन्त्रिणा उचितोत्तरस्य अप्रदानं यावत् प्रतिनिधिसभायाः उपवेशः उपवेष्टुं न शक्नोतीति उक्तवान् वर्तते। सत्तारूढानां दलानाम् उपवेशेन भूमिसम्बद्धः अध्यादेशः नियमित विधेयकरूपेण अग्रे नेतुं निर्णीतं वर्तते। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन सत्तारूढानां दलानाम् उपवेशेन अध्यादेशम् अग्रे नेतुं निर्णीय भूमिसम्बद्धम् अध्यादेशम् नियमित विधेयकरूपेण अग्रे वर्धयितुं निर्णीतम् अस्तीति नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीय श्याम घिमिरे अज्ञापयत्। सर्वकारेण संसद अधिवेशनस्य अभावे आनीतेषु विभिन्नेषु षड्सु अध्यादेशेषु भूमिसम्बद्ध अध्यादेश अग्रे सारितः नास्ति। पञ्च अध्यादेशः द्वाभ्यामेव सदनाभ्याम् स्वीकृतिम् लब्ध्वा अग्रे सारिताः सन्ति। पञ्चानामेव अध्यादेशानाम् विस्थापन विधेयकानि संघीय संसदि पारितीकरणस्य अवस्थायाम् वर्तन्ते। सुनसरी जनपदस्य इटरी वर्तिनी सेन्टर प्लाजा नाम्नि भवने दुरापन्नः अग्निदाह नियन्त्रितोऽस्ति। ह्य प्रातः सार्ध नववादनात् प्रारब्ध अग्निदाह आसन्न षड्भ्यः घण्टाभ्यः अनन्तरं नियन्त्रितः आसीत्। सुनसरी जनपद प्रहरी कार्यालयस्य प्रवक्तुः प्रहरी नायब उपरीक्षकस्य योगराज खतिवडाभिधस्य अनुसारेण अग्निम् समयितुम् विभिन्नानि स्थानीय स्तराणाम् द्वादश वारुण यन्त्राणि शतत्रयाधिकाः नेपाल प्रहरिण सशस्त्र प्रहरिण नेपाली सेनाश्च परिचालिताः सन्। अग्निदाहस्य कारणम् प्रहरिण अनुसन्धीयमानम् वर्तते। अग्निदाह सम्भूतात् भवनात् एकादश जनानाम् उद्धारः विहितः आसीत्। तेषु सर्वेषाम् अवस्था सामान्यास्तीति प्रेरणा ज्ञापितम् वर्तते। हुतात्मा गंगालाल राष्ट्रिय हृदय रोग केन्द्रे पञ्चदशभ्यः वर्षेभ्यः न्यून वर्षाणाम् वयस्कानाम् विपन्न परिवारस्य बालबालिकानाम् हृदय रोगस्य निःशुल्कम् उपचारः प्रारब्धोऽस्ति। स्वास्थ्य जनसंख्या मन्त्रिणः केन्द्रस्य संचालक समिति अध्यक्षस्य च प्रदीप पौडेलस्य अध्यक्षतायाम् ह्य उपविष्टेन उपवेशेन विपन्नार्थिक अवस्थावताम् परिवाराणाम् बालबालिकानाम् हृदय रोगस्य उपचारम् निःशुल्कम् कर्तुम् निर्णीतमिति केन्द्रस्य कार्यकारी निर्देशकः रविमल्लः अज्ञापयत्। मन्त्रालयेन केन्द्रस्य पञ्चशतस्य बालबालिकानाम् शल्यक्रियया सहितस्य उपचारस्य कृते केन्द्राय प्रतिबालबालिकम् लक्षद्वयम् पञ्चाशत् सहस्राणि च रूप्यकाणि सहयोगस्वरूपेण प्रदीयमानानि वर्तन्ते इति समाचाराः।